प्रियाः श्रोतारः, सादरम् अभिवादये। अहमस्मि निक्षितः शास्त्री। आकाशवाणीतः प्रसार्यमाणे अस्मिन् साप्ताहिकी इति कार्यक्रमे भवतां सर्वेषां स्वागतं करोमि। श्रोतारः, यथा भवन्तः जानन्ति यत् अस्माकं प्रियः देशः अष्टसप्ततितमं स्वातन्त्र्योत्सवं सोत्साहं परिपालयति। अस्मिन् अवसरे वयं तान् स्मरामः यैः स्वकीयैः प्राणैः देशः स्वतन्त्रः कृतः। अद्यतन कार्यक्रमस्य शुभारम्भं कुर्मः एकेन सुभाषितेन। सुभाषितम् आदाय प्रस्तुतः अस्ति अस्माकं सहयोगी पुनीत त्रिपाठी महोदयः।
कराविव शरीरस्य नेत्रयोरिव पक्ष्मणि अविचार्य प्रियं कुर्यात् तन्मित्रं मित्रमुच्यते।
श्रोतारः, कथं सुन्दररीत्या अस्माकं मार्गदर्शनं कृतम् अनेन सुभाषितेन। संस्कृतसाहित्ये अनन्तमात्रायाम् उपलभ्यमानात् स्तोत्रसाहित्यात् शास्त्रीयसङ्गीतस्वीकृत सन्दर्भसंवृत्तेन श्लोकेन सह उपस्थिता अस्ति सुमधुरस्वरयुता अस्माकं सहयोगिनी रिंकुः। प्रसंगाख्ये अस्मिन् प्रभागे अस्तु शृण्मः रिंकुम्।
राधा साध्यं साधनं यस्य साधा मन्त्रो राधा मन्त्रदात्री च राधा सर्वं राधा जीवनं यस्य राधा 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 वाचि किं तस्य शेषम्।
धन्यवादाः रिंको। श्रोतारः, अस्मिन् सप्ताहे आविश्वे कः कः घटनाक्रमः प्रचलति तद्विषये ज्ञातुं शृण्मः साप्ताहिकी वार्ताः। साप्ताहिक वार्ताः आदाय उपस्थिता अस्ति अस्माकं सहयोगिनी निधि झा।
प्रधानमन्त्रिणा नरेन्द्रमोदिना नवदिल्ल्यां वियतनाम देशीयेन स्वीय समकक्षेण फॉम मिन्ह चिन्ह इत्यनेन सह संवादो विहितः। उत्तराखण्डस्य तेहरी स्थले मेघस्फोट दुर्घटना, जनद्वयं तत्र निधनं गतम्। केदारोपत्यकायां मार्गध्वंसनेन 200 यात्रिणः निरुद्धाः। तावत् अनेकेषु जनपदेषु वृष्टेः अस्ति रक्तवर्णीया संचेतना। दिल्ली विमानपत्तनस्थले परिवर्तिताः विमानोड्डयन मार्गाः। केरल राज्यस्य वायनाड स्थले जायमानेन वृष्ट्याधिक्येन संचाल्यमानम् साहाय्योद्धार कार्यं बाधितम्। भूस्खलनेन मृतकानां संख्या तावत् साम्प्रतम् इतोऽपि एधमाना। पेरिस क्रीडा महाकुम्भे लक्ष्यवेधकः स्वप्निलः कुसालेः पुरुषाणां 50 मीटर राइफल शूटिंग इति स्पर्धायां भारताय तृतीयं कांस्य पदकं विजितवान्। धन्यवादाः।
संस्कृत रसलोलुपाः सरसिकाः श्रोतारः, अस्मिन् क्रमे अग्रे गच्छन् अहं भवतः सर्वान् उत्तम श्रोतॄन् कार्यक्रमस्य ज्ञान विज्ञान विभागं प्रति नयामि, यत्र अस्माकं सहयोगिनी निधि तिवारी लब्ध प्रतिष्ठितस्य विदुषः साक्षात्काराय उपस्थिता अस्ति।
प्रियाः श्रोतारः, आकाशवाण्याः सम्प्रसार्यमाणे संस्कृत साप्ताहिकीति कार्यक्रमे अद्य अस्माभिः सह विराजन्ते श्री काशी विद्वत् परिषदः महामन्त्री पदभागाः, काशी हिन्दू विश्वविद्यालयस्य व्याकरण विभागस्य विभागाध्यक्षचराः प्रोफेसर रामनारायण द्विवेदी महाभागाः। नमो नमः महाभाग।
नमो नमः
महोदय। मम प्रथमः प्रश्नोऽयं विद्यते यत् श्री काशी विद्वत् परिषद् केन प्रकारेण संस्कृत भाषायाः संवर्धने कार्यं निष्पादयति, अथ च विदुषां योगदानम् एतस्मै परिषदे कथम् अस्तीति कृपया विज्ञापयन्तु।
तत्र मान्यमान्याः अखिल भारतवर्षे प्रसिद्धतमा इयं काशी विद्वत् परिषदः, यतोहि अत्यन्त प्राचीनतमा इयं विद्वत् परिषदः भगवत्पादैः आचार्यैः शङ्कराचार्यैः संस्थापिता इयं परिषदः। इयं परिषद् प्रायः शास्त्ररक्षायै सम्पूर्णभारतवर्षे संस्कृतिरक्षायै संस्काररक्षायै ये केचनपि हिन्दवः यत्र कुत्रापि तिष्ठन्ति तेषां मार्गदर्शनाय इयं परिषदः संस्थापिता भगवत्पादैः आचार्यैः जगद्गुरुवैः शंकराचार्यैः। परिषदः बहुविधानि अनेकानि कार्याणि कुर्वन्ति। तत्र नैकेषु कार्येषु श्रेष्ठतमं कार्यम् अस्ति पारम्परिकशास्त्राणां संरक्षणाय संवर्धनाय। पारम्परिकशास्त्राणां ये आचार्याः सन्ति शास्त्राणि अधीत्य शास्त्ररक्षायै अहर्निशं जीवनं यापयन्ति तेषां समुत्साहवर्धनाय इयं परिषदः बहुविधानि नैकानि कार्याणि कुर्वन्ति। तत्र शास्त्रार्थमहासभा एवञ्च विदुषाम् उत्सवः विदुषाम् सम्मानश्च अयं कार्यक्रम अहर्निशं विद्वत्परिषदाः ये अधिकारिणः सन्ति अस्माकम् इतः पूर्वं ये अधिकारिणः आसन् अध्यक्ष चराश्च आसन् अस्माकं गुरुचरणाः पूज्यपूज्याः अस्माकं विद्यागुरवः आधुनिक पाणिनिपाधिनः विभूषिताः पद्मश्री सम्मानेन सम्मानिताः आचार्याः रामयत्न शुक्ल महाभागाः। इतः पूर्वं पण्डित शिवकुमार शास्त्री महाभागाः। इतश्च पूर्वं नैके शास्त्रज्ञाः ये काशिकेयाः विद्वांसः आसन् ते परिषद अध्यक्ष चराश्च आसन्। इदानीं परिषद अध्यक्षाः पद्मविभूषण सम्मानेन सम्मानिताः न्यायशास्त्र विचक्षणाः विश्वविश्रुताः आचार्याः प्रोफेसर वशिष्ठ त्रिपाठी महाभागाः। एवञ्च परिषदाः नैके विद्वांसः सन्ति ये उपाध्यक्षाः सन्ति एवञ्च मन्त्रिणः सन्ति। नैके भूताः आचार्याः परिषदस्य दायित्वम् इदानीं निर्वहन्ति। तथा भूतः परिषदाः यदा न्यायालयात् कश्चन विवादः सनातन धर्मम् आधारीकृत्य आगच्छन्ति तदा परिषदाः परामर्शं ददाति। तत्र शंकराचार्य विषयेपि पीठाधीश्वराणां विषयेपि ये कश्चन विवादाः आगच्छन्ति ताम् विवादाम् आधारीकृत्य तत्र निरापदकरणाय अयं परिषदः विचार विमर्शः कुर्वन्ति। विदुषाम् एवञ्च भारत सर्वकारेणापि यत्र कुत्रापि धर्म व्यवस्था विषयिणी वार्ता भवति तत्र परामर्शदातृरूपेण काशी विद्वद् परिषदः अपेक्षितः भवन्ति। उत्तरप्रदेश सर्वकारेणापि यथा राम मन्दिर भूमिपूजनम् एवञ्च राम मन्दिर प्राणप्रतिष्ठा महोत्सवेऽपि काशी विद्वद् परिषदः साक्षिरूपेण तत्र उपस्थिताः। एवञ्च भगवतः विश्वेश्वरस्य विश्वनाथ धाम कारिडोर विकास समयेऽपि काशी विद्वद् परिषदा महत्वपूर्ण भूमिकाम् निर्वहन्ति। एवं भूतः काशी विद्वद् परिषदः इदानीं काश्याम् कार्यम् कुर्वन्ति।
अस्तु, शोभनम् प्रतिपादितम् भवता। अस्तु महाभागः, मया ज्ञातम् यत् भवान् नागकूप शास्त्रात् समीतेः महामन्त्री पदभाजाः सन्ति। इयं परम्परा कीदृशी अस्ति? अपि च संस्कृत जगति संस्कृतानुरागिभ्यः मानसिक विकासाय भाषा संवर्धनाय च मार्ग प्रदर्शनम् कथं करोति?
सत्यं भवती कथयति। तत्र नागकूप शास्त्रार्थ समितेः संस्थापकाः अपि अस्माकं पूज्य पूज्याः गुरुचरणाः गोलोकवासिनः आचार्याः रामयत्न शुक्ल महाभागाः एव। इतः पूर्वमपि कार्यं तत्र शास्त्रार्थ सभा भवति स्म। यतोहि एका किंवदन्ती तत्र वर्तते, एका परम्परा श्रुति वर्तते, नागपञ्चम्यां महर्षि भगवता महामुनिना पतञ्जलिना तत्रैव उपविश्य व्याकरणशास्त्रस्य महान् भूतं यद् ग्रन्थं वर्तते महाभाष्यं तत्रैव रचयामास। एतदर्थं तत्रैव ये व्याकरणशास्त्र विचक्षणाः विद्वांसाः पुराकाले आसन् ते तत्र शिष्येण साकं तत्र गत्वा तत्र शास्त्र चर्चां कुर्वन्ति अस्म अस्म। किन्तु मध्ये किञ्चित् विरामः जातः। एकदा गुरुचरणानाम् एव आवासे गर्गाश्रमे पाठः चलति स्म। तस्मिन् समये गुरुचरणैः उक्तं परश्वः नागपञ्चमी तिथि वर्तते, तत्र शास्त्रचर्चां कथं भवति, एका एका समिति यदि निर्मिता स्यात् तदा बहु सुन्दरतया शास्त्रचर्चां भवितुं शक्यते। तस्मिन् समयेऽपि तैः उक्तं भवन्तः महामन्त्रिणः एके अध्यक्षाः एके कोषाध्यक्षाः एके एवमेवं ते एव मुखादेव निःसृता शब्दः सा एव समितिपदेन पदभाजा जाता आचार्य एव निर्मिता इयं समितिः। तत्र एका परम्परा विशिष्टा वर्तते नागपञ्चम्यां काशिकेयाः ये छात्राः काशिकेयाः ये विद्वांसाः तत्र गत्वा तत्र समीपे एव वागदेवी मन्दिरं वर्तते वागदेव्याः मन्दिरं प्रणम्य नागकूप जलं गृहीत्वा तदनन्तरम् आचमनं कृत्वा तदस्थले उपविश्य शास्त्रचर्चां स्वतन्त्रतया कुर्वन्ति। बहु विचक्षणा शास्त्रचर्चा भवति स्म शनैः शनैः अस्माकं मनसि एवम् आगतं नैके विद्वांसा अत्र आगच्छन्ति। अखिलभारतीयस्तर रूपेण एका विद्वत् सम्मेलनं विद्वत् सभा भवेत्। तत्र आरम्भकाले पञ्चसहस्रैः एकेन विदुषां सम्मानं तत्र भवति स्म आरम्भकाले गुरुचरणैः यदा संस्थापितम् प्रायः अखिलभारतीयस्तरे प्रायः विदुषां सम्मानं जातम् इदानीमपि चलति। अनन्तरम् एकादशसहस्रम् अनन्तरं पञ्चविंशतिसहस्रम् अस्मिन् वर्षे एकपञ्चाशत्सहस्रम् तत्र नागपञ्चम्याम् अस्मिन् वर्षे अगस्त मासस्य नवम तारिकायां तत्र आयोजिता भवति शास्त्रचर्चा शास्त्रार्थचर्चा अनन्तरं शास्त्रार्थ सम्मान सभा अनन्तरं भविष्यति। तत्र अखिल भारतीय स्तरेषु पञ्च विदुषां सम्मानं तत्र भविष्यति। एवं भूता इयं शास्त्रार्थ समिति गुरुचरणानाम् एकः संकल्पः आसीत् प्रतिपक्षं शास्त्रार्थ सभा भवेत्। किन्तु मध्ये कोरोना वैश्विक महामारी समागतः तेषां मनसि एका इच्छा आसीत् गुरुचरणानां संकल्पम् आधारीकृत्य गतवर्षे अस्माभिः संकल्पितं विदुषैः साकं प्रतिपक्षम् अमावस्यां पूर्णिमायां वा कास्यां शास्त्रार्थ सभा भविष्यति इति तन्मे मनः शिव संकल्पामस्तु। गुरुचरणानाम् आशीर्वादेन अयं कार्यक्रमः इदानीमपि प्रचलति।
शोभनम् अस्तु आचार्य, भवता बहु सम्यक्तया प्रतिपादितं। तावत् संस्कृतस्य भविष्यकालिकीं स्थितिं भवान् कथम् अवलोकयति, कृपया इयमेव प्रतिपादयतु।
संस्कृतस्य भविष्यकालिकीं स्थितिं बहु सुन्दरम् अस्ति। भारत सर्वकारेण नूतन शिक्षा नीतेः बहु सम्यक्तया संस्कृत मातुः प्रचार प्रसाराय संस्कृत मातुः रक्षणाय च बहुविधं विधानं सम्पादितं विद्यते तत्र नूतन शिक्षानीतौ। तत्र ये संस्कृतज्ञाः भवन्ति आधुनिक भाषायामपि पठने पाठने समर्थाः भवन्ति, तत्रापि अध्ययनम् अध्यापनं कृते तत्रापि व्यवस्था वर्तते। तत्र IIT मध्येपि संस्कृतज्ञाः गच्छन्ति, तथा अन्यासु संस्थासु अपि तत्र गन्तुं शक्यते। एवं तथा प्राक् पूर्वं नासीत्, किन्तु इदानीं नूतन शिक्षानीतौ तत् एतादृशी व्यवस्था वर्तते। तेन माध्यमेन संस्कृतज्ञानां संस्कृतछात्राणां कृते बहुविध विकासः बहुविध प्रकाशः तत्र समालोच्यते।
तर्हि भाषायाः संवर्धनाय सम्भाषणम् अपेक्षितं वर्तते उत वा न?
सत्यं, संस्कृतभाषायाः रक्षणाय संवर्धनाय एकः कल्पः अस्माकं भारतवर्षे 30 वर्षेभ्यः प्राक् प्रचलति संस्कृत भारती द्वारा।
आम्,
तत्र संस्कृतभाषायाः रक्षणाय संवर्धनाय पोषणाय च अयं कार्यक्रमः प्रचलति। अग्रे शास्त्ररक्षा माध्यमेन काशिकेयाः ये विद्वांसाः सन्ति विभिन्नेषु विश्वविद्यालयेषु ये आचार्याः सन्ति तं माध्यमेन अपि अयं कार्यक्रमः प्रचलति। संस्कृतभाषा सम्भाषणं बहु आवश्यकं वर्तते। यद् ग्रन्थम् अस्माभिः अधीयते तद् ग्रन्थं यद् भाषया निर्मितं यद् भाषया आबद्धं वर्तते तेन भाषया अस्माकम् अध्ययनम् अध्यापनं यदा भवति तदा अस्माकं कृते सौकर्यं भवति ज्ञानवर्धनाय शास्त्ररक्षणाय संस्कृतमातुः रक्षायै एतादृशः कार्यक्रमः बहु आवश्यकम् अस्ति।
अस्तु आचार्य, साक्षात्काराय अस्मै भवता प्रकल्पिताय निज समयाय धन्यता वचांसि समर्पयाम्यहम्। नमो नमः आचार्याय, नमो नमः।
नमो नमः भवती कृतेऽपि नमो नमः।
सुधियः श्रोतारः, एतादृशं व्यक्तित्वं चरित्रं च अस्माकं संस्कृतक्षेत्रे अग्रे गन्तुमुत्सुकानां यूनां मार्गदर्शनं अवश्यं करिष्यति। सम्प्रति वयम् अग्रे सरामः संस्कृतदिगदर्शन भागं प्रति, यत्र अस्माकं सहयोगिनी सुषमा अस्मान् ज्ञापयति यत् किं भवति।
केन्द्रीय संस्कृत विश्वविद्यालय पर्याय पुत्तिगे मठ
भारतीय विद्वत परिषद च सम्भूय एक पञ्चाशत्तमं सत्रान्तर्गतं राष्ट्रिय सम्मेलनं प्रवर्तमान वर्षे अक्टूबर मासे समनुष्ठीयन्ते। अत्र प्रथम दिवसे स्वागत सत्रं उडुपी कर्णाटके सम्पत्स्यते, ततः विद्वत् परिषदि पर्याय पुत्तिगे मठे समापन दिवसः च केन्द्रीय संस्कृत विश्वविद्यालये भविष्यति। उत्तर प्रदेशीय संस्कृत संस्थान लखनऊ द्वारा वर्षेस्मिन् संस्कृत विषये रुचिधारकेभ्यः छात्रेभ्यः संस्कृत प्रतिभा अन्वेषण प्रतियोगितायाः आयोजनम् अगस्त मासे आयोजितम्। प्रतियोगितेयं जनपद मण्डल राज्य च एतेषु त्रिषु स्तरेषु सम्पादिता।
वयं सर्वेपि जानीमः बालाः एव अस्माकं देशस्य भविष्यभूताः। तेषां मार्गदर्शनाय बालवल्लरी इत्याख्यं प्रभागम् आदाय उपस्थितो अस्ति अस्माकं सहयोगी युवराजः भट्टरायिः।
चलसीह नु तारकीते गगने प्रभया हृदि कौतुकतां भरसे रजनीकर सोमतमो हरसे द्विजराज सदा मधुरं हससि सुखदं तव दर्शनमस्ति सदा गिरिशो वहति हमुदा शिरसा प्रकृतौ तव शास्ति सुशीतलता प्रकृतौ तव शास्ति सुशीतलता तिमिरेत्र च काशी विभासि तथा तिमिरेत्र च काशी विभासि तथा उडुराज विभासि यदा दिविरे उडवो भुवि भान्ति तदैव सखे उडुभि द्युतिरस्ति तवैव हिता उडुभि द्युतिरस्ति तवैव हिता शिशिरै किरणै लसति हधरा शिशिरै किरणै लसति हधरा।
मित्राणि, अस्माकं देशः अनेक वर्णैः भाषाभिः वेशभूषाभिः व्यञ्जनैश्च युक्तः समग्रः सजीवश्च इन्द्रधनुष इव वर्तते। अस्य इन्द्रधनुषस्य कैश्चित् भाषिक वर्णैः सह एकं भारतं श्रेष्ठं भारतम् इत्युपक्रमे कृष्णप्रसाद उपाध्यायः अस्माकं सम्मुखे अस्ति। सः श्रावयति कानिचन विभिन्न भाषा भाषित वाक्यानि।
एक भारत श्रेष्ठ भारत इत्यन्तर्गतानि कानिचन भारतीय भाषायाः वाक्यानि यथा संस्कृते मनोयोगेन पठतु भवतः जीवनयात्रा सुकरा भविष्यति। हिन्द्याम् मन लगाकर पढ़िए आपकी जीवन यात्रा आसान हो जाएगी। नेपाली भाषायाम् मन लगाएर पढ्नुहोस् तपाईको जीवन यात्रा सजिलो हुनेछ। असमिया भाषायाम् भाल धरे पढक आपनार जीवन यात्रा सहज होइ पारिब। नमस्काराः, धन्यवादाश्च।
कार्यक्रमस्य नूतनतायै भवताम् प्रतिक्रियाः अस्मान् प्रेरयन्ति, एतदर्थं वयं कृतज्ञताम् प्रकटयामः। भवन्तः कार्यक्रम सम्बन्धाः स्वीय प्रतिक्रियाः ईमेल माध्यमेन प्रेषयितुं च प्रार्थ्यन्ते। अस्माकं ईमेल संकेतो वर्तते samskritasaptahiki@gmail.com। साम्प्रतं तु समागतास्ति अस्य अङ्कस्य विरामवेला। प्रयाणाय च सम्प्रति अनुज्ञापयन्तु भवन्तः। आगामि सप्ताहे नवमेकं रञ्जकमादाय यथासमयं पुनः मेलिष्यामः। तावत्पर्यन्तं सर्वेभ्यः सादरम् अभिवादनम्। भवतु तावत् शुभं मङ्गलं च।